श्रीरङ्गगद्यम् चिदचित्परतत्त्वानाम् तत्त्वयाथार्थ्यवेदिने रामानुजाय मुनये नमो मम गरीयसे। स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदम् क्लेशकर्माद्यशेषदोषासंस्पृष्टम् स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःसौशील्यवात्सल्यमार्दव आर्जव सौहार्दसाम्यकारुण्यमाधुर्यगाम्भीर्यौदार्य चातुर्यस्थैर्यधैर्यशौर्यपराक्रम सत्यकामसत्यसङ्कल्प कृतित्वकृतज्ञताद्यसङ्ख्येयकल्याणगुणगणौघमहार्णवम् परःब्रह्मभूतम् पुरुषोत्तमम् श्रीरङ्गशायिनम् अस्मत्स्वामिनम् प्रबुद्धनित्यनियाम्यनित्यदास्यैकरसात्मस्वभावोऽहम् तदेकानुभवः तदेकप्रियः परिपूर्णम् भगवन्तम् विशदतमानुभवेन निरन्तरम् अनुभूय तदनुभवजनित अनवधिकातिशयप्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो भवानी। स्वात्मनित्यनियाम्य नित्यदास्यैकरसात्मस्वभावानुसन्धानपूर्वक भगवदनवधिकातिशय स्वाम्याद्यखिलगुणगणानुभवजनित अनवधिकातिशयप्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्युपायभूतभक्ति तदुपायसम्यग्ज्ञान तदुपायसमीचीनक्रिया तदनुगुणसात्त्विकतास्तिक्यादि समस्तात्मगुणविहीनः दुरत्तरानन्त तद्विपर्ययज्ञानक्रियानुगुण अनादिपापवासनामहार्णवान्तर्निमग्नः तिलतैलवद्दारुवह्निवत् दुर्विवेचत्रिगुणक्षणक्षरणस्वभाव अचेतनप्रकृतिव्याप्तिरूप दुरत्यय भगवन्मायातिरोहितस्वप्रकाशः अनाद्यविद्यासञ्चित अनन्त अशक्यविस्रंसनकर्मपाशप्रघ्रतितः अनागत अनन्तकालसमीक्षयापि अदृष्टसन्तारोपायः निखिलजन्तुजातशरण्य श्रीमन्नारायण तव चरणारविन्दयुगलम् शरणमहम् प्रपत्ये। एवम् अवस्थितस्यापि अर्थित्वमात्रेण परमकारुणिको भगवान् स्वानुभवप्रीत्योपनीत ऐकान्तिकात्यन्तिक नित्यकैङ्कर्यैकरतिरूप नित्यदास्यम् दास्यतीति विश्वासपूर्वकम् भगवन्तम् नित्यकिङ्करताम् प्रार्थये। तवानुभूतिः सम्भूतप्रीतिकारितदासताम् देहि मे कृपया नाथ न जाने गतिमन्यथा सर्वावस्थोचिताशेषशेषतैकरतिस्तव भवेयम् पुण्डरीकाक्ष त्वमेवैवम् कुरुष्व माम्। एवम् भूततत्त्वयाथात्म्यावबोध तदिच्छारहितस्यापि एतदुच्चारणमात्रावलम्बनेन उच्यमानार्थपरमार्थनिष्टम् मे मनः त्वमेव अद्यैव कारया। अपारकरुणाम्बुधे अनालोचितविशेष अशेषलोकशरण्य प्रणतार्तिहर ఆశ్రితవాత్సల్యైకమహోదధి అనవరత విదిత నిఖిల భూతజాత యాథాత్మ్య సత్యకామ సత్యసంకల్ప ఆపత్సఖ కాకుత్స్థ శ్రీమన్ నారాయణ పురుషోత్తమ శ్రీరంగనాథ మమ నాథ నమోస్తుతే శ్రీరంగనాథ మమ నాథ నమోస్తుతే.